started.
Om Guru Brahma, Guru Vishnu, Guru Deva Maheshwara, Guru Sakshat Parabrahma, Tasmai Shri Gurave Namaha, Shri Gurubhyo Namaha.
धन्यवादः महोदय. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. तत्र अस्माकम् अद्य नूतनविषयः भवति. तत्र नूतनविषयः किम् अस्ति इत्युक्ते तत्र लृङ्लकारः. तत्र लृङ्लकारः किम् अस्ति इत्युक्ते तत्र लृट्लकारः अपि लङ्लकारः तयोः मिश्रणम् इति वक्तुं शक्नुमः. तत्र रूपं कीदृशं भवति चेत् तत्र वयं जानीमः तत्र अभवत् इति. तत्र अभवत् इति लङ्लकाररूपं, भवति इति क्रियापदस्य लङ्लकाररूपम् अभवत्. अपि तत्र लृट्लकारे भविष्यति इति रूपं. किन्तु इदानीं तत्र नूतनलकारः लृङ्लकारः अस्मिन् लकारे तत्र रूपं किं भवति इत्युक्ते अभविष्यत्. तत्र यदि अहं वर्गे तत्र विलम्बेन अगमिष्यत् तदा छात्राः गताः अभविष्यन्. यदि अहं वर्गे अथवा वर्गं विलम्बेन अगमिष्यम् तर्हि छात्राः गताः अभविष्यन् इति. तत्र अहं किम् अभवत्? तत्र अहं समयेन एव तत्र वर्गम् आगतवान्. अतः छात्राः वर्गे सन्ति. किन्तु यदि तादृशी परिस्थितिः नासीत्, नाम यदि अहं वर्गं समये न आगतवान्, तर्हि किं भवति इति अत्र वार्ता. नाम यदि अहं वर्गं समये न अगमिष्यं तर्हि छात्राः गताः अभविष्यन्. नाम छात्राः तत्र न तिष्ठन्ति, ते सर्वे गच्छन्ति इति. अतः तत्र रूपमस्ति भविष्यति इति अपि नास्ति, अभवत् इति नास्ति, किन्तु अभविष्यत् इति रूपमस्ति. अस्तु, तर्हि तत्र एकवारं तत्र पाठं पठामः. तत्र तदनन्तरं अर्थः कः इति ज्ञातुं शक्नुमः इति मन्ये. अस्तु, सूर्यकुमारी भगिनी पठति, आरम्भं करोति वा? तत्र पुटसङ्ख्या अस्ति 108 इति.
एकक्षणं.
अष्टाधिकशततमे पुटे.
यदि गीतां न अपठिष्यम् लुल्लकारः एतत् सम्भाषणम् उच्चैः पठत.
हा, अस्तु. अतः भगिनि तत्र भवती तत्र आचार्यः इति भवति वा? तत्र रघुपतिमहोदय भवान् अन्यत् किं किं भवति तत्सर्वं करोति वा महोदय?
अहं शिष्यः भवति.
भवती शिष्यः भवति वा? अस्तु अस्तु. रघुपतिमहोदय भवान् एव आचार्यः अत्र. अस्तु, रघुपतिमहोदय आचार्यः. तत्र सूर्यकुमारी भगिनी तत्र शिष्यः मीनाक्षी, विजयः, सर्वं भवती एव. अस्तु
अस्तु अस्तु एकवारं महोदय. किमर्थं तत् विजय, गीतोपदेशस्य कारणं जानासि किम्?
आम्, जानामि. अर्जुनस्य विषादः तत्र कारणम्. अर्जुनः यदि विषादः उपविश्य तर्हि कृष्णः चेतं न उपादेक्ष्यत्
अग्रे मीनाक्षी अपि भवति एव
किन्तु अर्जुनः विषादं कथम् अनुभवान्
अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान् अतः विषादः जातः यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्
अस्तु यदि अर्जुनः एतत् युद्धम् अधर्मविरुद्धं विचिन्त्य अयोत्स्यत
लक्ष्मी भगिनी नमस्कारः इदानीं श्रूयते वा इदानीमपि प्रायश इदानीं श्रूयते
नमस्कारः
नमस्कारः भगिनी लक्ष्मी भगिनी नमस्कारः पूर्वं न श्रूयते भगिनि यदि भवती उक्तवती न वा तत्र न जानीमः
इदानीमेव योजितवती
अस्तु 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 भगिनि तत्र पुटसङ्ख्या अस्ति
अतः पूर्वतन लिङ्क् उपयुज्य
ओ अस्तु अस्तु भगिनि हा पुटसङ्ख्या अस्ति 108
अस्तु
लक्ष्मी भगिनी तत्र भवती तत्र इदानीं मीनाक्षी भवितुम् अर्हति भवती अस्तु
एकनिमिषं
सम्भाषणे
अवश्यं खलु अवश्यं खलु
इदानीं तत्र सूर्यकुमारी भगिनी भवती विजयः इति आसीत् खलु विजयः अपि मीनाक्षी भवती एव कृतवती अस्तु
अवश्यं खलु
अस्तु इदानीं लक्ष्मी भगिनी भवती मीनाक्षी तत्र अवश्यं खलु इति
पुटसङ्ख्या न प्राप्तवती
108 भगिनि 108
एकनिमिषम्
मीनाक्षी अहं पठामि तदनन्तरं
अस्तु तदनन्तरं सा लक्ष्मी भगिनी विधेयः इति भवतु अस्तु समीचीनमेव अस्तु अस्तु भगिनि सूर्यकुमारी भगिनी पठतु भगिनि
खलु अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति
इदानीम् आचार्यः
महोदय सः युद्धभूमौ एव विषादग्रस्तः अभवत् यदि विषादरहितः भविष्यत् तर्हि गीतोपदेशस्य अवसरः न अभविष्यत्
लक्ष्मी भगिनी इदानीं तत्र विजयः मोहग्रस्तः इति
मोहग्रस्तः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम साहाय्यं करोतु
तदा श्रीकृष्णः कुरुक्षेत्रे अष्टादशाध्यायिनीं गीताम् उपादिशत्
उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः स्मृतिः लब्धा
नष्टमोहः अर्जुनः युद्धाय
असन्नह्यत इति असन्नह्यत इति सन्नहते इत्यस्य सन्नहते
समीपं तत्र तत्र सिद्धः सिद्धः
इति अर्थात् यदि कृष्णः अर्जुनं न उपादेक्षत् तर्हि सः अयोष्यत पाण्डवाः नैव अजेष्यन्
न वा वयं गीतारूपम् अमूल्यनिधिम् अलप्स्यामहि
अहं यदि गीतां न अपठिष्यं तर्हि जगतः वास्तविकस्वरूपं न अज्ञास्यम्।
न केवलं तत् अस्य उपनिषत्सारामृतस्य आस्वादनात् एव वयं वञ्चिताः अभविष्यामः।
हा, बहु समीचीनम्। अस्तु, अतः तत्र विषयः कः इत्युक्ते मूलविषयः तत्र लृङ्लकारः रूपं, लृङ्लकारस्य रूपं तत्र अग्रिमे पुटं पश्यतु। तत्र अग्रिमे पुटे दत्तमस्ति, तत्र भूधातोः भवति इति लट्लकाररूपं लङ्लकाररूपे अभवत् इति, अपि लृट्लकारे भविष्यति इति, किन्तु तयोः मेलनं कृत्वा इति इदानीं तत्र लृङ्लकारः अभविष्यत्। अतः अन्तिमभागः तत्र लङ्लकारवत् अस्ति, तत्र अभवत् अपि आरम्भे अपि तत्र अकारः अस्ति, अडागमः अस्ति अभविष्यत् इति, अभवत् स्थाने अभविष्यत् इति। अतः आरम्भे अपि अन्ते तत्र लङ्लकारम् इव लङ्लकार इव अस्ति, किन्तु मध्ये तत्र लृट्लकारस्य रूपं स्थापितमस्ति, नाम तत्र अभविष्यत्। अतः तत्र किं करणीयं, तत्र पठत् तत्र पठ् धातोः तत्र लृङ्लकाररूपं कोऽपि वदति वा? अपठिष्यत्। समीचीनम्, अस्तु। तत्र तदनन्तरं तत्र अन्यत् किं कुर्मः, तत्र पठ् धातोः रूपम् अन्यानि तत्र किं वदति? अवदिष्यत् इति। हा, समीचीनम्, अस्तु। तत्र इदानीं तत्र अन्यत् कुर्मः, नयति नयति इति मास्तु तत्र, अस्तु। पठति इति तत्र अन्यत् किं, हा, नमति नमति, ओ तदपि तत्र, अस्तु। तत्र हसति इति स्वीकुर्मः, तदपि प्रायशः तत्र किम्, अस्तु,
हसिष्यति खलु, अतः अस्माकं तु मनसि भवेत् लिट् लकारस्य, अनन्तरं सुलभमस्ति तत्र मध्ये लिट् लकार, अन्तिमे तकारापि मध्ये आदौ अकार एव,
तावदेव।
लिट् लकारस्य ज्ञानं भवति चेत् सुलभं भवति,
तदेव अपेक्षितम् अस्ति इदानीम्। तदेव यदि तत्र गच्छति तत्र किं भवति, गच्छति अगमिष्यत् इति, समीचीनम्, अगमिष्यत्, अस्तु। तत्र तदनन्तरं, हा, तत्र करोति
अकरिष्यत्
अकरिष्यत् इति, समीचीनं। लिखति
अलेखिष्यत्
लेखिष्यत् अलेखिष्यत्, हा, अस्तु। तदनन्तरं तत्र अन्यत् किं, तत्र इदानीं तत् हरति तद् दृष्टवन्तः, अस्तु, अग्रे कुर्मः, किन्तु तदेव सः एव मूलविषयः, तत्र मेलनमस्ति, नाम तत्र लङ्लकारः लृट्लकारस्य तयोः मेलनं लृङ्लकारः इति प्रथमतया रूपं, तदनन्तरम् अर्थः कः, एतस्य लकारस्य अर्थः कः इति, तत्र तत्र अधोभागे तत्र सम्भाषणात् प्राक् तत्र अधोभागे तत्र एक प्रथमवाक्यं पठामः तत्र, अस्तु, तत्र लक्ष्मीभगिनी भवती एव पठतु तत्र अधोभागे प्रथमवाक्यम्।
अस्तु, अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यत्।
हा, इदानीं तत्र अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यत्। अर्थः कः इति, अस्मिन् तत्र अस्य वाक्यस्य अर्थः यदि तत्र मनसि स्थापितः भवति, तदनन्तरं तत्र लृङ्लकारस्य अर्थः कः इति ज्ञातुं शक्नुमः। तत्र किमस्ति, तत्र श्रीकृष्णः अर्जुनेन सह अस्ति खलु, अत्र अत्र किम् अस्ति न अभविष्यत् यदि नासीत् यदि अर्जुनेन सह श्रीकृष्णः नासीत् तर्हि
सः युद्धं न अकरोत्
तत्र न अकरिष्यत् तत्र हा नाम सः न करिष्यत् करोति तत्र सः युद्धं न करोति न करिष्यति हा कः तत्र अर्जुनः युद्धं न
करिष्यति
हा करोति तत्र यदि सः न आसीत् यदि अर्जुनेन सह श्रीकृष्णः नासीत् तर्हि तत्र वयं जानीमः अर्जुनः युद्धं न कृतवान् खलु हा तत्र श्रीकृष्णस्य तत्र सः उपस्थितिः श्रीकृष्णस्य उपस्थितिः तत्र कारणम् अस्ति तत्र अर्जुनः अर्जुनः युद्धं कृतवान् इति कार्यं प्रति तत्र श्रीकृष्णस्य तत्र उपस्थितिः सः तत्र आसीत् श्रीकृष्णः तत्र आसीत् अतः एव तत्र अर्जुनः युद्धं कृतवान् इदानीं तत्र यदि स श्रीकृष्णः नासीत् किं भवति इति तत्र वार्ता तादृशीं वार्तां वक्तुम् एषः लकारः यत्र यदि किमपि न अभवत् तर्हि तत्र तेन किं भवति तेन कार्यं तत्र तेन कार्येण तेन कारणेन किं कार्यं भवितुम् अर्हति इति तत्र तादृशी परिस्थितिं तत्र वक्तुम् इच्छामः अतः तत्र यदि अस्मिन् अपि अन्यः वा अन्य अंशः अत्र तत्र लृङ्लकारे सर्वदा तत्र लृङ्लकारस्य क्रियापदद्वयमेव भवति वाक्ये यतोहि तत्र यदि तर्हि रूपे एव तत्र एतस्य लकारस्य प्रयोगः भवति यदि एतद् अभविष्यत् तर्हि तदा अन्यत् किमपि अगमिष्यत् इति तादृशरूपमेव भवति अतः तत्र सम्भाषणे अपि तदेव दृष्टवन्तः खलु किन्तु एकवारं तत्र अधोभागे यद् अस्ति तद् परिशीलयामः तत्र यदि इति अस्ति खलु प्रथमवाक्ये यदि अर्जुनेन सह श्रीकृष्णः न अभविष्यत् तर्हि सः अर्जुनः युद्धं न अकरिष्यत् तत्र अभविष्यत् अकरिष्यत् इति तत्र अभविष्यत् इति लृङ्लकारः अकरिष्यत् अपि लृङ्लकारः तत्र लङ्लकारः लृट्लकारः तयोः मेलनं लृङ्लकारः अस्तु इदानीं तत्र सूर्यकुमारी भगिनी द्वितीयवाक्यं
महोदय अर्जुनः यदि रणाङ्गणात् पलायिष्यत तर्हि इतिहासः तम्
अनिन्दिष्यति इति खलु
निन्दिष्यति अनिन्दिष्यत् इति
अनिन्दिष्यत् अनिन्दिष्यत् आ योगः निन्दिष्यत् ओके
हा तत्र इदानीं तत्र प्रथमवाक्ये तत्र किम् आसीत् तत्र परस्मैपदधातु आसीत् अतः तत्र हा इदानीम् अग्रिमे पुटे तत्र रूपाणि दत्तानि सन्ति एकवारं पश्यामः सूर्यकुमारी भगिनी भवती एव तत्र एकवारं पठतु तत्र भूधातोः तत्र परस्मैपदधातूनां रूपाणि
भूधातुः भवति लङ्लूपम् अभवत् लृट् रूपं भविष्यति लृङ् रूपम् अभविष्यत् परस्मैपदधातूनां ऋण्लकारे रूपाणि एवं भवन्ति भूधातुः परस्मैपदि प्रथमपुरुष अभविष्यत् अभविष्यताम् अभविष्यन् मध्यमपुरुषः अभविष्यः अभविष्यतम् अभविष्यत प्रथमपुरुषः अभविष्यन् अभविष्याव अभविष्याम
समीचीनं हा. अतः तत्र वयं जानीमः तत्र किं तत्र मेलनम् अस्ति इति. इदानीं तत्र आत्मनेपदीधातूनां रूपाणि एकवारं तदपि पठतु.
आत्मनेपदीधातूनां लकारे रूपाणि एवं भवन्ति. वन्द् धातुः प्रथमपुरुषः अवन्दिष्यत अवन्दिष्येताम् अवन्दिष्यन्त. मध्यमपुरुषः अवन्दिष्यताः अवन्दिष्येताम् अवन्दिष्यध्वम्. उत्तमपुरुषः अवन्दिष्ये अवन्दिष्यावहि अवन्दिष्यामहि.
हा इति. अतः तत्र
प्रथम अन्तिम लङ् 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 रूपं मध्ये लट् रूपं.
हा खलु समीचीनं भगिनि. हा अतः तत्र वयम् इदानीमेव तत्र लङ्लकररूपम् आत्मनेपदीधातूनां दृष्टवन्तः खलु तत्र.
आम् आम्.
तत्र अवर्धत अवर्धेताम् अवर्धन्त इति तत्र तादृशमेव अस्ति. तत्र वन्दातुः अवन्दत अवन्देताम् अवन्दन्त. इदानीं किन्तु तत्र अवन्दिष्यत अवन्दिष्येताम् अवन्दिष्यन्त. अत्र तत्र मध्ये तत्र लृट्लकारं रूपं तत्र तत् स्थापितमस्ति. तादृशं रूपम् अस्ति. अत्र तत्र पलायिष्यत इति तत्र आत्मनेपदी धातु
पलायिष्यते.
हा इति समीचीनं भगिनि. हा तत्र पलायते इति तत्र लट्लकारे
एकवचनम्
एकवचने. इदानीं तत्र पलायिष्यत इति तत्र लृङ्लकाररूपं. तत्र यदि अर्जुनः रणाङ्गणात् पलायिष्यत तर्हि इतिहासः तम् अर्जुनम् अनिन्दिष्यत्. किन्तु एतद् न अभवत् खलु. तत्र अर्जुनः रणाङ्गणात् न, तत्र सः रणाङ्गणे एव आसीत् खलु. तत्र तत्र अर्जुनः तत्र रणाङ्गणात् तत्र किमस्ति अपालयत् इति अपालयत इति खलु. तत्र पालयति न पलायत. हा क्षम्यताम् अपालायत. अर्जुनः रणाङ्गणात् अपालयत न अपलायत न. सः रणाङ्गणे एव तिष्ठवान्. अतः तत्र किम् एतद् न अभवत्. तत्र अर्जुनः रणाङ्गणात् न. अतः किन्तु वयं चिन्तयामः यदि एतत् अभवत् तर्हि किं भवति इति. अतः एतत् वर्णितुम् इच्छामः. अतः तत्र लृङ्लकारः यदि यदा लृङ्लकारस्य उपयोगः भवति वयं जानीमः एषा वस्तुस्थितिः नास्ति किन्तु केवलं सम्भावना. यदि एतद् अभवत् किन्तु तादृशं न अभवत्. समीचीनं वा
महोदय?
तत्र यद् वर्णयामः तद् सत्यं नास्ति किन्तु केवलं सम्भावनारूपे तत्र यदि एतद् आसीत् पूर्वे इदानीम् एतद् अन्यत् भवति इति तादृशं रूपं भवति. किन्तु तादृशं नासीत्. अतः
महोदय तत्र पलायिष्यते तत्र उपसर्गयुक्त अस्ति. अतः न भवति अत्र मध्ये पलायिष्यते एव भवति.
अस्मिन् विषये तत्र दीर्घा चर्चा अपि जाता खलु महोदय. मया विस्मृतमासीत्. सत्यं महोदय धन्यवादः. अतः तत्र पलायत इति एव भवति. हा तत्र
पलायते पलायत इति
इत्येव सत्यं. हा धन्यवादः महोदय धन्यवादः. तत्र सत्यं सत्यं. हा धन्यवादः महोदय. हा समीचीनं.
पल इति उपसर्ग
भवान् तस्मिन् विषये तत्र हा तत्र कथं रेपः लकारः भवति इति तत् सर्वं वयं चर्चितवन्तः. किन्तु तद् मनसि आसीत् किन्तु तत्र उपसर्गः अस्ति इति एव अहं विस्मृतवान्.
फल उपसर्ग महोदय.
हा तत्र
पर इति
उपसर्गः
अस्मिन् विषये चर्चा अभवत् किन्तु अहं विस्मृतवान् तत्र उपसर्गयुक्तक्रियापदम् इति तत्र विस्मृतवान् समीचीनम् अतः तत्र अर्जुनः तत्र रणाङ्गणात् अपालायत न सः न अपालायत अतः तत्र अर्जुन यदि अर्जुन रणाङ्गणात् पलायिष्यत तर्हि इतिहासः तम् अर्जुनम् अनिन्दिष्यत् किन्तु इतिहासः अर्जुनं न निन्दति यतोहि सः रणाङ्गणे एव आसीत् अपि युद्धमपि कृतवान् अस्तु रघुपतिमहोदय भवान् एव इदानीम् अग्रिमवाक्यं वदतु भगिनि निन्दिष्यति निन्दति इति लट्लकारे निन्दति
निन्दति निन्दिष्यति
अनिन्दत् अनिन्दत् अपि तत्र निन्दिष्यति इति तयोः मेलनम् अनिन्दिष्यत् इति अस्तु रघुपतिमहोदय
हा महोदय एकवारम् अस्तु कुत्र महोदय पाण्डवाः
तृतीयवाक्यं
पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत् पाण्डवाः अज्ञातवासे वस्त्राणि अभिधानानि च यदि न परिवर्तितवन्तः स्यात् तर्हि तेषाम् अभिज्ञानं
अभविष्यत्
अभवत्
निश्चयेन अभवत् इति वक्तुं शक्नुमः
अभवत् स्यात् इति
अभवत् स्यात् अतः तत्र तत्र तादृशार्थे तत्र किन्तु वयं जानीमः तत्र वासांसि नाम वस्त्राणि अपि अभिधानानि नाम
चिह्नानि
नामानि ते सर्वे तत्र परिवर्तितवन्तः अतः तत्र यदि तत् परिवर्तनं न कृतवन्तः तर्हि तेषाम् अभिज्ञानं निश्चयेन जातम् अतः तत्र किन्तु ते तत्र अज्ञातवासे एतत् कृतवन्तः अतः तत्र यदि पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत् इति अस्तु इदानीं तत्र वासः न एतद् वासः न वासः इति पुल्लिङ्गपदम् एतत् वासस् इति अस्ति वस्त्रम् इति अर्थे वासांसि
जीर्णानि
तत्र भगवद्गीताश्लोकमस्ति खलु तत्र आत्मा तत्र जीर्णानि वासांसि तत्र त्यक्त्वा नूतनं तत्र यदि यदि वयं वासांसि तत्र जीर्णानि वासांसि त्यजामः तथैव आत्मा वासां तत्र जीर्णानि तत्र देहम् इति शरीरं शरीरमिति इति स्वीकुर्मश्चेत् तत्र शरीराणि जीर्णानि शरीराणि त्यक्त्वा नूतनशरीरं प्राप्नोति इति अतः तत्र वासांसि इति नाम तत्र वस्त्रम् इदानीं तत्र पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि अथवा आरम्भे यदि इति स्थापयामः यदि पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत् इति इदानीं तत्र एतत् सम्भाषणमपि इदानीं पठामः तत्र किञ्चित् ज्ञानं प्राप्तमिति मन्ये तत्र लृङ्लकारस्य किन्तु तस्मात् सम्भाषणस्य पठनात् प्राक् एकम् एकं स्व उदाहरणं तत्र अस्माकम् उदाहरणं वदामः. तत्र लघुवाक्यं, किन्तु तत्र यदि एतत् न अपविष्यत् तर्हि अन्यत् किमपि न अपविष्यत् अथवा न अपठिष्यत् अगमिष्यत् इति तादृशं रूपं किमपि लघुवाक्यं कुर्मः. तत्र यः सिद्धः अथवा सिद्धः अस्ति वदतु.
यदि अहं बाल्यकाले संस्कृतम् अपठिष्यत् तर्हि इदानीं सम्भाषणम् इदानीं तर्हि सुललितया सम्भाषणम् अकरिष्यत् अपठिष्यं. यदि बाल्यकाले संस्कृतम् अपठिष्यं तर्हि सम्भाषण संस्कृतसम्भाषणं सुललितेन अकरिष्यम्
अकरिष्यं. समीचीनं महोदय. हा समीचीनं. हा तादृशमेव. हा समीचीनं, बहु उत्तमं महोदय. अस्तु, इदानीं लक्ष्मी भगिनी अथवा सूर्यकुमारी भगिनी.
यदि बालकः पाठं न अपठिष्यत् तर्हि उत्तीर्णः न अभविष्यत्.
हा समीचीनं भगिनी. हा उत्तीर्णः न अभविष्यत्. समीचीनम्, उत्तमं भगिनि. हा अस्तु, सूर्यकुमारी भगिनि.
क्षम्यतां महोदय.
हा चिन्ता मास्तु, लघुवाक्यं तत्र यदि तर्हि इति वाक्यं स्वीकरोतु. यदि तर्हि इति किमपि वाक्यं वदतु, लघुवाक्यं.
अहं
यदि यदि इति आरम्भे स्थापयतु. यदि
यदि कृतवती
यदि अहं कार्यं कृतवती अथवा अकरोत् अकरोत् यदि अहं कार्यम् अकरोत्
अहं कार्यम्
अकरोत् क्षम्यताम् अकुर्वन्
कृतवती स्यात्
अकृतवती इदानीं तत्र हा अकरोत् इति अपि क्षम्यतां हा दोषयुक्तः एव. हा अकुर्वम् इति प्रायशः अस्ति खलु. किन्तु कृतवती इति स्वीकुर्मः. अस्तु, यदि अहं
कार्यं कृतवती यदि अहं कार्यं कृतवती तर्हि भोजनं सम्यक् अस्ति.
सम्यक्, यदि अहं कार्यं कृतवती तर्हि भोजनं
सम्यक्
अस्तु. तत्र पाकम् इति यदि अहं पाकम् अहं पाकं कृतवती तर्हि तत्र भोजनं सम्यक्
स्यात्.
न महोदय, इदानीं केवलं तत्र यदि तर्हि वाक्यं तस्मिन् वाक्ये इदानीं तत्र परिवर्तनं कृत्वा तत्र लृङ्लकारस्य रूपं वदामः. यदि यथा यतोहि तत्र भगिनी तत्र क्लेशः अस्ति इति उक्तवती, अतः तत्र केवलं साधारण यदि तर्हि वाक्यं तदनन्तरं परिवर्तनं कुर्मः. अतः सूर्यकुमारी भगिनी, भवत्याः वाक्यम् अस्ति तत्र यदि
अहं कार्यं न पाकं न अकरिष्
न तत्र लृङ्लकारम् इदानीं मास्तु, सरलवाक्यं यदि तर्हि पाकं कृतवती तर्हि
यदि अहं पाकं कृतवती तर्हि
भोजनं सम्यक्
भवति
अस्ति भवति इति. हा इदानीं तत्र हा इदानीं तत्र लृङ्लकारं स्थापयतु. यदि अहं
यदि अहं पाकं न
करिष्यामि इति स्थाने अकरिष्यामि इति खलु तत्र
उत्तमपुरुष
अकरिष्यम् इति एव अस्ति मन्ये
करिष्यति खलु करिष्यामि अकरिष्यम् एव
अकरिष्यम्
आम् अपटम् इति खलु अतः अन्तिमस्य लङ्लकारस्य एव भवेत् खलु अतः दीर्घ भवेत् ह्रस्व एव भवेत् लङ्लकारस्य अन्तिम लङ्लकारस्य मध्ये लृट्
लकारः सत्यं सत्यं महोदय सत्यं सत्यम् अतः तत्र अकरिष्यं यदि अहं पाकं न अकरिष्यं
तर्हि भोजनं
सम्यक् न
अभविष्यत्
सम्यक् न अभविष्यत् इति तावदेव अतः तत्र अकरिष्यम् अभविष्यत् इति अतः तत्र यदि तर्हि इति यद् भवति तद् साधारणतया वदामः तत्र किन्तु यद् नास्ति यदि अन्यत् किमपि अभवत् इति स्थाने तत्र यदि अन्यत् किमपि अभविष्यत् तर्हि एतत् कार्यम् अपि अभविष्यत् इति तादृशं रूपम् अस्ति लृङ्लकारस्य अस्तु इदानीं रघुपतिमहोदय भवान् अपि उक्तवान् खलु भवान् आरम्भे एव उक्तवान् अस्तु अस्तु तर्हि इदानीं तत्र सम्भाषणं पङ्क्तिशः पश्यामः किं किम् अस्ति इति अस्तु तर्हि तत्र रघुपतिमहोदय भवान् एव तत्र आरम्भं करोति वा तत्र
आं महोदय तत्र
तत्र सम्भाषणम् आरम्भतः तत्र
एकमेकम् विजय गीतोपदेशस्य कारणं जानासि किं भवती जानाति किम् इति वदति आं जानामि अर्जुनस्य विषादः तत्र कारणम् अस्ति अर्जुनः यदि विषादाविष्टः न अभविष्यत् तर्हि कृष्णः गीता न उपादेक्षत् यदि यदि अभविष्यत् यदि अर्जुनः विषादाविष्टः न अभविष्यत् न
अतः तत्र महोदय तत्र एतत् कुर्मः तत्र एतद् वाक्यमेव दृष्ट्वा यत् वस्तुस्थितिः इति तद् एकवारं वदामः तर्हि तत्र वयं जानीमः तत्र अर्जुनः विषादाविष्टः
अभवत्
तर्हि
तं गीताम्
उपदिष्टवान् इति तद् जानीमः इदानीं तद् यदि तद् इदानीं तत्र यदि सः न
विषादाविष्टः
यदि सः न आसीत् तत्र न अभविष्यत्
न भूतवान् स्यात् तर्हि गीतां न उपदिष्टवान् स्यात् इति अस्ति इदानीं तत्र स्यात् इति त्यक्त्वा तत्र केवलं तत्र क्रियापदमेव वक्तव्यम् कृदन्तपद अपि च स्यात् इति कृदन्तपद अपि स्यात् इति कुर्मः चेत् यदि अर्जुनः विषादाविष्ट न भूतवान् स्यात् तर्हि कृष्णः गीतां न उपदिष्टवान् स्यात् इति
तदेव सः एव अर्थः
तदेव अर्थः अत्र अनेन भवति अर्जुनः यदि
तत्र स्यात् इति स्थाने तत्र साक्षात् क्रियापदम् एव अत्र भवति
इत्युक्ते तत्र क्रिया इदानीम् उपविषादः अभवत् अतः तत्र भूतकालार्थरूपं भूतवान् इति किमपि अन्यत् करणीयम् स्यात् इति वक्तव्यम् अतः तत्र त्यक्त्वा इदानीम् अभविष्यत् उपादेक्षत् अस्तु देक्ष्यति
तत्र दिश् धातुः तत्र
निरागमना भवति इति भवति देक्ष्यति इति भवति
देक्ष्यति इति भवति तत्र तत्र दिश् इति तत्र एकारः भवति अपि तत्र उप अध्येक्षत् तत्र उप पुनः तत्र उपसर्गः अस्ति अतः तत्र अध्येक्षत् इति भवति दिश् धातोः तत्र लृङ्लकाररूपं किं भवति
न अपश्यत् इति अस्ति अपश्यत् अत्र दिश् देश्य देक्ष्यति इति लट्लकाररूपं वा लट्लक ऋट्लकाररूपं देक्ष्यति
हा
उप
अपश्यत्
उपदिशति
क्षम्यतां मम भ्रमः अभवत् उपदिशति उपादिशत् इति उपादिशत् इति उपादिशत् इति लङ्लकाररूपमस्ति
लङ्लकाररूपम् उपदिशति इति एव खलु महोदय
न न तत्र लिट्लकरु देक्ष्यति वा देक्ष्यति उपदेक्ष्यति उपदेक्ष्यति इति रूपम्
इदानीं तत्र अपि तत्र तत्र किम् अस्ति इदानीं तत्र उप तदनन्तरम् अधेक्ष्यत् इति भवति अतः तत्र तत्र वयं जानीमः तत्र किम् अस्ति तत्र देक्ष्यति इति अस्ति अपि तत्र अदिशत् इति तत्र लङ्लकाररूपम् अदिशत् तत्र अदिशत् अपि देक्ष्यत् तयोः मेलनम् अधेक्ष्यत् उपाधेक्ष्यत् इति अस्तु तर्हि तत्र अधेक्ष्यत् इति तत्र स्वीकृत्य महोदय तत्र दिश् धातोः अधेक्ष्यत् इति प्रथमपुरुषे एकवचने अस्ति इदानीं तत्र अन्यानि रूपाणि वदति वा एकवारम्
अस्तु अधेक्ष्यत् अधेक्ष्येताम् इति भवति वा एकवारम्
अधेक्ष्येताम् परस्मैपदी धातुः अस्ति महोदय
ओ क्षम्यताम् ओ अस्तु अधेक्ष्यत् अधेक्ष्यताम् खलु अधेक्ष्यम् अधेक्ष्याव अधेक्ष्याम
इति समीचीनं महोदय समीचीनं अतः तत्र दिश् धातोः तत्र देक्ष्यति अदेक्ष्यत् इति रूपं भवति अतः तत्र न उपदिष्टवान् स्यात् इति स्थाने तत्र न उपादेक्ष्यत् इति समीचीनं महोदय अपि तत्र विषादाविष्टः तत्र अपि तत्र विषादः तत्र अर्जुनस्य विषादः कारणम् अर्जुनः यदि विषादाविष्टः तत्र विषादाविष्टः तत्र विषादाग्रस्तः अथवा विषादयुक्तः अथवा आविष्टः तत्र आविष्टः इति तत्र धातु तत्र किं तत्र तत्र
विषधातु एव
तत्र प्रवेशः आविशति इति प्रायशः तत्र तत्र प्रवेशः कृतम् इति किं भगिनि आविष्टः तत्र तप्रत्ययः इति मन्ये तत्र आविशति इति तत्र तप्रत्यय आविष्टः इति भवति इति मन्ये तत्र विषादाविष्टः अर्जुनः तत्र विषादाविष्टः तत्र विषादग्रस्तः तत्र विषादः तस्मिन् आसीत् तत्र उपस्थितः आसीत् विषादः अर्जुने उपस्थितः आसीत् अतः तत्र अर्जुनः विषादाविष्टः आसीत् तदा तर्हि एव तत्र श्रीकृष्णः गीताम् उपदिष्टवान् किन्तु यदि सः न विषादाविष्टः अभविष्यत् तर्हि श्रीकृष्णः गीतां न उपादेक्ष्यत् इति समीचीनम् अस्तु अग्रे सूर्यकुमारीभगिनी अग्रे पठति वा
महोदय
किन्तु अर्जुनः
किन्तु अर्जुनः विषादं कथम् अनुभूतवान्
तत्र विषादम् अनुभूतवान् तत्र अनुभूतवान् इति क्रियापदम् इति स्वीकुर्मश्चेत् तत्र कर्तृपदं किम् अस्ति न अनुभूतवान् इति अन्वभवत् इति स्वीकरोतु, अन्वभवत् इति स्वीकुर्मः. तत् क्रियापदम् अस्ति, किन्तु तत्र कर्तृपदं किम् अस्ति? अर्जुनः. कर्मपदम् अस्ति वा अनुभवति इति? हा, विषादम् अनुभवति. तत्र विषादः पूर्वं तत्र कारणम् इति उक्तम् आसीत्, कस्य कारणमस्ति अर्जुनस्य विषादः? किन्तु अर्जुनस्य विषादः तत्र कारणम् इति आसीत्. अर्जुनस्य विषादः कस्य कारणमस्ति?
कस्य कारणम् अर्जुनस्य
विषादः? किन्तु विषादः कस्य कारणमस्ति? सः दुःखितः आसीत् खलु? विषादः नाम सः दुःखितः आसीत्. इदानीं तस्य दुःखं यदस्ति तत्र गीतोपदेशस्य कारणम् अस्ति अर्जुनस्य विषादः. विषादः कारणं गीतोपदेशं कार्यं. समीचीनं. अतः तत्र विषादः एव कारणम् अपि गीतोपदेशस्य इति. अस्तु, अग्रे.
अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान्, अतः विषादः जातः. यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्. अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान्. अर्जुनः मनसे अधिकारसम्बन्धं स्थापितवान् युद्धपरिणामे.
स्वस्य अधिकारसम्बन्धं स्थापितवान् नाम तत्र सः तत्र युद्धेन किं किं भवति, तस्य किं फलं भवति, अन्येषाम् अपि किं किं फलं भवितुम् अर्हति इति सर्वं चिन्तितवान्. अतः तत्र किं तत्र बन्धूनां तत्र मरणं भवति अपि तत्र, अतः तत्र बान्धवाः एव तत्र सन्ति इति, तत्र युद्धेन तेषां मरणं भवति इति सर्वं चिन्तयित्वा सः विषादविष्टः अभवत्. अतः तस्य विषादः जातः. किन्तु यदि इदानीं तत्र लृङ्लकारस्य यदि
कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्.
हा, इदानीं तत्र
स्वाधिकारं कर्मण्येव.
हा, तत्र तत्र वयं जानीमः तत्र कर्मण्येव अधिकारः मापलेषु इति. अतः तत्र यत् कार्यं करणीयमस्ति तत् कार्यं कुर्मः, तत्र कार्यस्य फलं तत्र यत्
फलम् अपेक्षते चेत्
हा तत्र तस्मिन् विषये चिन्तनं मास्तु इति. अतः तत्र यदि तादृशं यदि सः चिन्तितवान् यदि तादृशं चिन्तनं कृतवान् सः तर्हि तत्र विषादः
न अभविष्यत्.
हा, अतः इदानीं तत्र यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्. हा, इदानीं तत्र अस्थापयिष्यत् इति अस्ति, तत्र परस्मैपदी धातु वा आत्मनेपदी धातु वा? अत्र
परस्मैपदी.
हा, परस्मैपदी. इदानीं तद् दृष्ट्वा तत्र रूपाणि वदतु भगिनि, तत्र द्विवचने बहुवचने अन्येषु
पुरुषेषु
मध्यमपुरुषे अस्थापयिष्यः तत्र अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभविष्यतम् अभविष्यत अभविष्यम् अभविष्याव अभविष्याम मध्यमपुरुषे पुनः एकवारं वदतु तत्र अस्थापयिष्यः
अस्थापयिष्यथम् अस्थापयिष्यत
इदानीम् उत्तमपुरुषे
अस्थापयिष्यम् अस्थापयिष्याव अस्थापयिष्याम
हा इति समीचीनं भगिनि हा अस्तु हा अतः तत्र अस्थापयिष्यत् इति तत्र स्था धातुः किन्तु तत्र एतत् तत्र निच्छपि अस्ति अतः तत्र स्थापयिष्यति इति तत्र स्थापयति इति स्थापयति स्थापयति इति लट्लकररूपं स्थापयति तत्र स्थापयिष्यति इदानीं तत्र अस्थापयिष्यत् इति समीचीनं भगिनि
अभविष्यत् अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभविष्यतः अभविष्यम् अभविष्याव अभविष्याम
हा इति समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनी इदानीं
अस्तु यदि अर्जुनः एतद् युद्धम् अधर्मविरुद्धम् इति विचिन्त्य अयोत्स्यत तर्हि तस्य विषादः न अभविष्यत् यदि अर्जुनः युद्धम् अयोत्स्यत तर्हि तस्य विषादः न अभविष्यत्
हा समीचीनं तत्र किं विचिन्त्य तत्र अधर्मविरुद्धम् इति
विचिन्त्य
तत्र अधर्मविरुद्धम् इति विचिन्त्य तत्र नाम एतत् युद्धं धर्मविरुद्धम् अस्ति वा अथवा नास्ति
नास्ति यदि
धर्मविरुद्धं नास्ति
अस्ति इति चिन्तयति चेत् एतत् तस्य
सः युद्धं कर्तुं सिद्धः अभवत् किन्तु सिद्धः स्यात् किन्तु तत्र सः किं चिन्तितवान् तत्र एतत् युद्धं धर्मविरुद्धम् अस्ति इति चिन्तितवान् खलु अतः तत्र एतत् युद्धं इदानीं तत्र धर्मविरुद्धम् अस्ति इति यदि सः न चिन्तितवान् किन्तु अधर्मविरुद्धम् अस्ति इति यदि चिन्तितवान् तर्हि विचिन्त्य अयोत्स्यत इति अस्ति अयोत्स्यत इति तत्र धातु तत्र लट्लकारे किम् अस्ति युध्यते
युध्यते
इदानीं तत्र अयोत्स्यत
भविष्यत्कालः
हा तत्र अयोत्स्यत दृष्ट्वा वयं जानीमः तत्र आत्मनेपदी धातु इति खलु
अयुध्यत लङ्लकारः
हा
अयोत्स्यत लिङ्लकारः
हा समीचीनं भगिनि हा तत्र लृट् लकारः योत्स्यते इति अस्ति अपि तत्र अपि अयुध्यत यथा भवती उक्तवती तत्र अयुध्यत इति तत्र अयुध्यत इति तत्र लङ्लकारे हा अपि लृट्लकारः लृङ्लकारः समीचीनं हा योत्स्यते इति लृट्लकारः लृङ्लकारः अयोत्स्यत इदानीं तत्र वन्द् धातुः तत्र आत्मनेपदी धातु इति जानीमः इदानीं तत्र अयोत्स्यत इति तत्र रूपं दृष्ट्वा तत्र अवन्दिष्यत इति दृष्ट्वा हा इदानीं तत्र अयोत्स्यत इति तस्य रूपाणि वदतु भगिनि
अयोत्स्यत अयोच्येताम् अयोच्यन्त अयोच्यथाः अयोच्येताम् अयोच्यन्
अयोच्यध्वम्
अयोच्ये अयोच्ये अयोच्यावहे अयोच्यामहे
वहि वहि खलु
अयोच्यावहि अयोच्ये अयोच्यावहि
अयोच्यावहि अयोच्यामहि अयोच्यामहि समीचीनं हा तत्र अत्र तु शकार मूर्धन्यशकार नास्ति किन्तु तत्र सकारः एव अस्ति खलु तत्र वन् धातु तत्र शकारः अस्ति किन्तु अत्र तु तत्र योत्स्यते सकारः एव अस्ति न तु तत्र मूर्धन्यशकारः हा समीचीनं हा तर्हि तस्य विषादः न अभविष्यत् समीचीनम् अग्रिमवाक्यम्
अवश्यं खलु अर्जुन अवश्यं खलु अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् अभविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं न प्राप्स्यम् इति
इदानीं तत्र चेत् इति अस्ति तत्र चेत् इति वयं जानीमः तत्र चेत् इति अर्थः कः चेत् अस्ति चेत् यदि इति अर्थः एव खलु अतः तत्र चेत् स्थाने यदि इति स्थापयतु तावदेव तत्र तद् अस्ति चेत् अन्यत् किमपि वदामः अथवा चेत् त्यक्त्वा यदि
यदि अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य
तत्र भगिनि तत्र अर्जुनः आदौ एतत् कुर्मः तत्र यत् इति अस्ति खलु भगिनि यत् इति अस्ति खलु मध्ये यत् अस्ति खलु तत्र अर्जुनः आदौ न चिन्तितवान्
यदि धर्मकार्यं न अभविष्यत् तर्हि अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति
हा इति सः चिन्तितवान् समीचीनं भगिनि अतः तत्र चिन्तनं यत् सः चिन्तितवान् तस्य तस्मिन् चिन्तने तत्र लृङ्लकारः भवति अथवा तत्र तत्रैव तत्र यदि तर्हि इति भवति हा अतः तत्र सः किं चिन्तितवान् अथवा न किं न चिन्तितवान्
यदि
अभविष्यत् तर्हि
अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति
हा इति समीचीनं हा अतो अस्तु समीचीनम् इदानीं तत्र अभविष्यत् इति तत्तु तत्र तत्र तस्य रूपाणि तु दृष्टवन्तः इदानीं प्राप्स्यम् इति अस्ति हा तत्र प्राप्स्यम् इति तत्र तस्य रूपाणि वदति वा तत्र प्राप्स्यम् इति अस्ति
प्राप्नोमि इति खलु
हा प्राप्नोमि आप्नोमि हा हा सत्यं हा तत्र तत्र किं भवति तत्र प्राप्स्यम् इति परस्मैपदी एव अस्ति परस्मैपदी अभविष्यम् इति तादृशं हा अतः तत्र रूपं किं भवति तत्र तत्र प्राप्स्यत् इति अस्ति
प्राप्स्यत् प्रा उपसर्गः
हा प्रा उपसर्गः तत्र प्राप्नोति तत्र आप्नोति खलु तत्र
प्राप्स्यत् प्राप्स्यतां प्राप्स्यन्
प्राप्स्यन् तावदेव हा प्राप्स्यन् समीचीनं हा
प्राप्स्याः प्राप्स्येतां
प्राप्स्यः प्राप्स्यतं प्राप्स्यतं
प्राप्स्यत
प्राप्स्यत
प्राप्स्यं
प्राप्स्याव
प्राप्स्याव प्राप्स्याम
इति एव समीचीनं भगिनि हा अतः समीचीनं हा अस्तु, अतः तत्र अभ्यासः जातः, अतः तत्र प्राप्स्यति, तत्र प्र उपसर्गः आप्स्यं, तत्र आप्स्यम् इति एव रूपम् अस्ति तत्र, तत्र आप्स्यम् आप्स्यताम् आप्स्यन् इति समीचीनं। तत्र आप्नोत् तत्र लट् लकारे किम् अस्ति, तत्र आप्नोति इति अस्ति, प्र उपसर्ग
प्राप्नुवन्ति, प्राप्नोषि, प्राप्नुतः, प्राप्नुताः, प्राप्नुत,
आमाम् आमाम् आप् धातुः अपि प्र उपसर्गः इति, समीचीनम् अस्तु। हा अग्रे रघुपति महोदय।
अस्तु महोदय, तर्हि विजय मोहग्रस्तः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम साहाय्यं करोतु, साहाय्यं
तस्य पूर्ववाक्यं,
क्षम्यताम्, अस्तु, सः युद्धभूमौ तदभवत् वा?
न न न अभवत्,
अस्तु क्षम्यताम्, सः युद्धभूमम् एव विषादग्रस्तः अभवत्, यदि विषादरहितः अभविष्यत् तर्हि गीतोपदेशस्य अवसरः न अभविष्यत्। अस्तु, अत्र युद्धभूमौ इदानीं विषादग्रस्तः अभवत्, यदि अर्जुनः विषादरहितः रहितः अभविष्यत् भूतवान् स्यात् तर्हि गीतोपदेशः अवसरः न अभविष्यत्।
तत्र गीतोपदेशस्य अवसरः एव
न
तत्र न भवितुम्
भवति इति
अतः तत्र अपि तत्र एव युद्धभूमौ एव इति विषादग्रस्तः अभवत्, नाम यदि तत्र युद्धात् प्राकेव सः विषादग्रस्तः आसीत् चेत् अपि तत्र अवसरः न प्राप्तं खलु, सः युद्धभूमौ अस्ति तस्मिन् समये एव तत्र विषादग्रस्तः सः अभवत्, अतः तत्र गीतोपदेशस्य अवसरः अभवत्। तत्र यदि तत्र युद्धानन्तरं विषादग्रस्तः आसीत्
सर्वत्र क्रियायाः अनिष्पत्तिः अस्ति, पूर्वं यदि किमपि अनिष्पत्तिः अनन्तरं तत्र कुर्मः, यदि यदि भवती यदि पठति चेत् सः उत्तीर्णः भवति इति, इदानीम् उत्तीर्णं न अभवत् अतः एव वयं वदामः इति सम्यक् अपठिष्यत् तस्मिन् एव तादृशस्थितौ एव अस्य प्रयोगः भवति खलु,
सत्यं महोदय,
न अभवत्,
हा यदा किमपि न अभवत् तस्मिन् विषये वयं चिन्तयामः यद् तद् भवेत् चेत् किम् इति, किन्तु तत्र किं तत्र पञ्चतन्त्रकथा अस्ति खलु महोदय, तत्र किं नष्टः पिष्टघटः,
ओ आमां सत्यं सत्यं, तत्र लिङ् लकारस्य
तत्र एतत् समीचीनं भवति, लृङ्लकारस्य
समीचीनं चिन्तनं यत् न भवति न अभवत्
न अभवत्
भूतकाले अथवा भविष्यत्काले अपि वयं तत्र तस्य वाक्यं कुर्मः तत्र,
हा अस्तु, तत् तद् प्रायशः अग्रिमे वर्गे तत् हा तत् कर्तुं
समीचीनमेव,
समीचीनं भवति, अस्तु अस्तु, हा अतः तत्र सर्वदा एतदेवम् अस्ति महोदय, तत्र यद् न अभवत् तस्मिन् विषये चिन्तनम्, अतः सर्वं सम्भवनैव, एतद् भवेत् तत् भवत् वा न वा इति एव चिन्तनम्,
इङ्ग्लिश्
आङ्ग्लभाषा महोदय।
अग्रे मोहग्रस्तः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम साहाय्यं करोतु इति,
तत्र प्रार्थयत, तत्र प्रार्थयत
लङ्लकारे,
प्रार्थयते इति आत्मनेपदी धातु प्रार्थयत इति, अपि तत्र मोहग्रस्तः इति किञ्चित् वदतु महोदय, तत्र
मोहग्रस्तः मोहेन तत्र आविष्टः ग्रस्तः,
हा तत्र मोहेन तत्र ग्रस्तः नाम तत्र मोहं तम् अर्जुनं गृह्णाति खलु,
गृह्णाति आमां
तत्र ग्रस्तः अपि तत्र यदि तत्र सुन्दरबालकः इति वदामः तत्र सुन्दरं विशेषणं सुन्दरः बालकः
धनञ्जयः
इति तत्र धनञ्जयः इति विशेष्यम् अस्ति, मोहग्रस्तः इति विशेषणम् अस्ति तत्र. इदानीं तत्र मोहः तत्र मोह इति एकं पदमस्ति, ग्रस्तः इति एकं पदमस्ति, किन्तु तत्र प्राधान्यं तत्र न प्रथमपदं न द्वितीयपदं किन्तु अन्यपदप्राधान्यम् अस्ति,
अन्यपदम्
अतः बहुव्रीहिसमासः अत्र
बहुव्रीहिसमासः.
हा, यः तत्र मोहेन ग्रस्तः अस्ति सः, अतः तत्र ये अत्र तु तत्र धनञ्जयः एव तत्र नाम अर्जुनः एव, अतः मोहग्रस्तः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम साहाय्यं करोतु. अस्तु, समीचीनं.
तत्र ऋषिकेशः विग्रहवाक्यं कथं भवति, ऋषिकाणां के ईशः वा?
हा, अस्तु भगिनि. हा हा हा, तत्र ऋषिकेशं तत्र ऋषिकेशः हा द्रष्टव्यमस्ति भगिनि, न न जानामि. रघुपतिमहोदय जानाति वा? समीचीनप्रश्नः.
जानामि महोदय तत्र.
हा तत्र
ऋषिकाणां नास्ति, ऋषिकेशस्य एव अस्ति वा?
केशस्य इति एव मम चिन्तनमस्ति तत्र,
ऋषिकेशः अथवा गुडाकेशः ऋषिकेश इति खलु,
ऋषिकेशः इति एव अस्ति.
अर्जुनस्य गुडाकेश इति भवति.
हा हा हा,
द्रष्टव्यं ऋषिकेशः
द्रष्टव्यमस्ति भगिनि, न स्मरामि एतद्, किन्तु प्रश्नः तु समीचीनमेव. हा अस्तु, अग्रे तत्र अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? तत्र प्रायश तत्र ततः एव भगिनि.
तदा श्रीकृष्णः कुरुक्षेत्रे अष्टादशाध्यायिनीं गीताम् उपादिशत्.
हा तत्र किम् उपादिशत् श्रीकृष्णः?
गीताम् उपादिशत्,
हा भगवद्गीताम् उपादिशत्. कीदृशी भगवद्गीता अस्ति?
गीताम् अष्टादशाध्यायिनीं.
हा अष्टादशाध्यायिनी, तत्र नाम भगवद्गीतायां कति अध्यायाः सन्ति? अष्टादश अध्यायाः,
अष्टादश अध्यायानां सन्ति.
हा अध्यायः अध्यायः इति मन्ये खलु,
अध्यायाः अध्यायानां सन्ति,
अध्यायाः सन्ति. हा
अध्यायाः
सन्ति, समीचीनं. हा तत्र तत्र अष्टादश अध्यायाः सन्ति भगवद्गीतायाम्, अतः तत्र भगवद्गीतायाः नाम भवति अष्टादशाध्यायिनी इति. अतः तत्र तादृशीम् अष्टादशाध्यायिनीं भगवद्गीतां श्रीकृष्णः कुरुक्षेत्रे उपादिशत्. हा समीचीनम्, अग्रे.
उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः, स्मृतिः लब्धा.
हा तत्र मोहः नष्टः नाम मोहः नष्टः अभवत्, स्मृतिः लब्धा अभवत्. तत्र लब्धा इति अस्ति किमर्थं, लब्धा किमर्थं स्त्रीलिङ्गे अस्ति?
लब्धा
स्मृतिः.
हा स्मृतिः इति स्त्रीलिङ्गे अस्ति. मोहः नष्टः, नष्टः किमर्थं पुल्लिङ्गे अस्ति, मोहः पुल्लिङ्गे अस्ति, नष्टः इति विशेषणमस्ति मोहपदस्य. अपि अर्जुनस्य स्मृतिः लब्धा, इदानीं तत्र
लब्धा.
हा मनसि कोऽपि क्लेशः नास्ति, अतः तत्र मनसि तस्य स्मृतिः लब्धा, सः स्मृतिं लब्धवान् अथवा तत्र स्मृतिः लब्धा. तत्र लब्धा इति अस्ति चेत् साधारणतया तत्र किं कर्मपदं भवति, तत्र स्मृतिः लब्धा अथवा अर्जुनः स्मृतिं लब्धवान्. अस्तु, अत्र प्रायशः तत्र एतावत् तत्र किं लृङ्लकारस्य किमपि कापि वार्ता नासीत्। अस्तु, तत्र अग्रिमवाक्यद्वयमपि पठतु भगिनि तर्हि।
परिणामतः नष्टमोहः अर्जुनः युद्धाय असन्नह्यत।
हा, नाम तत्र इदानीं तत्र पूर्वम् आसीत् मोहग्रस्तः,
नष्टमोहः अर्जुनः। कीदृशः अर्जुनः? नष्टमोहः अर्जुनः। पुनः कीदृशः? परिणामतः अर्जुनः।
एकनिमिष भगिनि, एकनिमिष, तत्र भगिनि अहं चिन्तयामि, तत्र प्रायशः तत्र पूर्वम् अहं सम्यक्तया न उक्तवान् इति। तत्र मोहग्रस्तः, तत्र ग्रस्तः इति धनञ्जयः, ग्रस्तः इति तत्र तत्र गृह्णाति, तत्र धनञ्जयः तत्र कर्मपदम् अस्ति, मोहः धनञ्जयं गृह्णाति, अतः तत्र धनञ्जयः ग्रस्तः इति, अतः तत्र विशेषणम् अस्ति मोहेन ग्रस्तः। महोदय, तत्र अहम् उक्तवान् तत्र कर्म, तत्र बहुव्रीहिसमासः प्रायशः दोषाय एव इति मन्ये भवति। सत्यं भगिनि, हा, मोहेन ग्रस्तः, समीचीनं। हा, अतः तत्र तु तत्र मोहेन ग्रस्तः तत्र तृतीया इति, किन्तु अत्र नष्टमोहः, हा, अत्र बहुव्रीहिः अस्ति, नाम तत्र मोहः नष्टः, तत्र इदानीं तत्र
न बहुव्रीहि मोहः नष्टः यस्य सः,
हा, यस्य मोहः नष्टः सः इति, अतः तत्र अत्र बहुव्रीहिः अस्ति, पूर्वं नासीत् अत्र अस्ति, हा, नष्टमोहः यस्य सः, सः अस्ति अर्जुनः,
ग्रस्तमोहः इति भवेत् तत्र, मोहः ग्रस्तः यस्य सः, ग्रस्तमोहः इति यथा नष्टमोहः,
हा, सत्यं महोदय, सत्यं सत्यं, हा, ग्रस्तमोहः आसीत् चेत्, हा, किन्तु न महोदय, न तदपि न, यतोहि तत्र मोहस्य विषयः नास्ति खलु, तत्र मोहः नष्टः, अत्र ग्रस्तः इति तत्र
मोहः इति वदति चेत् भवति वा, ग्रस्तः
न महोदय, यतोहि तत्र ग्रस्तः इति मोहस्य विषयः नास्ति खलु, तत्र ग्रस्तः यः अस्ति अर्जुनः एव ग्रस्तः अस्ति,
सत्यं सत्यं,
हा, मोहः ग्रस्तः नास्ति, हा, किन्तु अत्र मोहः एव नष्टः, किन्तु नष्टमोहः अस्ति अर्जुनः, अतः तत्र इदानीं बहुव्रीहि सम्यक् अस्ति महोदय, पूर्वं बहुव्रीहि सम्यक् नासीत्।
मोहं ग्रस्तः इति भवति वा?
न भगिनि, तत्र नाम तत्र यथा तत्र तत्र किं तत्र पश्यतु, तत्र
द्वितीयं तत्पुरुषः भवितुम् अर्हति वा?
मोहं ग्रस्तः न, तत्र मोहेन एव, तत्र यतोहि मोहः धनञ्जयं गृह्णाति, अतः तत्र धनञ्जयः ग्रस्तः, मोहेन धनञ्जयः ग्रस्तः इति एव खलु, किन्तु अत्र
मोहेन
नष्टमोहः, तत्र अर्जुनस्य विषयः तत्र मोहः नष्टः, कस्य मोहः नष्टः? अर्जुनस्य मोहः नष्टः, अतः अत्र वदतु भगिनि,
मोहग्रस्तः नष्टमोहः विपरीतार्थपदानि,
हा, तत्र सत्यं, किन्तु तत्र मोहग्रस्तः धनञ्जयः तत्र ग्रस्तः एव, तत्र द्वयमपि मोहग्रस्तः अपि नष्टमोहः द्वयमपि अर्जुनः इति पदस्य एव तत्र विशेषणं, किन्तु समासः भिन्नः भगिनि, तावदेव।
मोहः ग्रस्तः येन सः इति भवति वा?
येन ग्रस्तः, तत्र मोहेन ग्रस्तः, तत्र ग्रस्तः इति साक्षात् अर्जुनः अस्ति भगिनि, खलु लक्ष्मी भगिनि, कः ग्रस्तः? अर्जुनः ग्रस्तः. इदानीं प्रश्नः अस्ति केन ग्रस्तः? सः गृह्णाति अर्जुनं, मोहं गृह्णाति अर्जुनं, खलु? हा, अथवा अतः तत्र मोहेन ग्रस्तः धनञ्जयः इति. इदानीं तत्र अर्जुनः मोहः इति वक्तुं शक्नुमः वा?
न,
तत्र मोहः नष्टः इति. अतः तत्र नष्टः, यस्य मोहः नष्टः सः अर्जुनः इति. अतः तत्र द्वयमपि विशेषणं, किन्तु समानसमासः नास्ति. अतः तत्र किञ्चित् सावधानम् अपेक्षितम्. अहं शीघ्रतया उक्तवान् तत्र मोहग्रस्तः इति, तत्र बहुव्रीहित् न तत्तु
पूर्वं मोह नष्टः आसीत्, इदानीं नष्टमोहः अभवत्, तदा भवति खलु. मोह नष्टः आसीत् अतः युद्धं न कृतवान्.
नष्टमोह अस्ति अतः तत्र युद्धाय सः असन्नह्यत. तत्र नाम सः सिद्धः अस्ति इति. असन्नह्यत इति तत्र असन्नह्यत इति तत्र प्रायशः तत्र धातु किम् इति तत्र असन्नह्यत
सन्नहते
सन्नद्धः
इति खलु तत्र.
हा, तादृशमेव अस्ति महोदय. तत्र
सन्नहते सन्नहते इति अद्
सन्नहते प्रायशः अस्ति महोदय.
सन्निहिते इति वा?
सन्निहिते काले दुःखं करणे
दुःखीकरणे इति.
हा हा, किन्तु तत्र
अत्र भिन्न प्रायः सन् धातु अस्ति सन्नद्ध अस्ति सन् 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 नः धातु महोदय, ता प्रत्ययः अस्ति. सम् उपसर्गयुक्त नः धातु
अस्ति. उपसर्गः नः
सन्नन्तः सन्नन्दप्रयोगः
न सम् उपसर्गयुक्त नः प्रत्यय सारि नः धातु ता प्रत्यय सन्नद्धः इति भवति
साक्षात् क्रियापदं खलु महोदय. नास्ति खलु अत्र?
न तत्र नास्ति. एकवारं महोदय, कुत्र अस्ति तत्र? एकवारं मोह नष्टः असन्नह्यत नः धातु महोदय, नः धातु संयोग नश्यते नः धातु द्विवादिगणे धातु वा? एकवारं पश्यामि महोदय. नहते इति प्रायः नः धातु नः धातु एव अस्ति तत्र. नः धातु अस्ति एकवारं तत्र नः धातोः रूपाणि. आम् सत्यं, द्विवादिगणे धातु अस्ति अतः आत्मनेपदि अस्ति, आत्मनेपदि रूपम् अस्ति अतः द्वयमपि उभयपदि अस्ति. नश्यति नश्यते इति अस्ति, नश्यते लिट्लकारे लिट्लकारः अस्ति. नत्स्यते इति भवति, नत्स्यते इति तुगागमः भवति तत्र.
हा, किन्तु तत्र असन्नह्यत इति अस्ति. अस्तु, तत् सम्यक्तया न जानामि महोदय. तद् द्रष्टव्यम् अस्ति. किन्तु तत्र सिद्धः इति अर्थः तत्तु जानीमः, किन्तु तत्र कथं पदस्य निर्माणम् अस्ति इति.
तत्र
शत्रुप्रत्ययः नास्ति भगिनि, तत्र साक्षात् क्रियापदमेव तत्र.
परन्तु तत्र उपसर्गः अस्ति चेत् कं भवति, कथं भवति महोदय? तत्र अकार पुनः आदौ कं भवति, आदौ भवति वा?
असन्नह्यत इति. मम अपि तत्र
सत्यं समुपसर्गयुक्त सन्न सन्नद्धः इति भवति, तद् भिन्नमस्ति वा? प्रायः भिन्नमस्ति वा? एतत् नश्यते इति अस्ति अत्र, नश्यते इति भवति तत् नास्ति. तत्
तत्र
तद् नास्ति, भिन्नम् अस्ति एतत् प्रायः.
अस्तु, तत्र एकवारं
सन्निहिते काले इत्युक्ते आगच्छति, यदि आगच्छति सति
सत्यं सत्यं हा तत्र सन्निहिते काल सन् कालः सन्निहितः तत्र समीपम् अस्ति नाम तत्र मृत्युः समीपम् अस्ति चेत् समीपः अस्ति चेत् तस्मिन् तस्मिन् समये दृक्किङ्करणे तत्र कृदातोः खलु इति अस्तु तत्र अग्रिमवर्गे अहं वदामि तत्र दृष्ट्वा अपि पृष्ट्वा भवान् रघुपति महोदय भवानपि पश्यतु
न जानामि
अस्तु अस्तु तत्र अग्रिमवर्गे चर्चयामः तत्र किं भवति इति अस्तु अतः तत्र केवलं तत्र एकः एव निमेषः अस्ति किन्तु एकवारं तत्र रूपाणि पश्यामः तत्र एतावत् तत्र प्रायशः तत्र किं भूधातोः रूपाणि दृष्टवन्तः किन्तु तत्र वर्धते इति स्वीकृत्य तत्र एकवारं वदति वा तत्र लक्ष्मी भगिनी वदति वा तत्र वर्तते इति
वर्धते वा
अवर्तिष्यत
अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यन्त अवर्तिष्यथाः अवर्तिष्येताम् अवर्तिष्यध्वम् अवर्तिष्ये अवर्तिष्यावहि अवर्तिष्यामहि
हा इति समीचीनं भगिनि हा अस्तु अस्तु तर्हि तत्र इदानीम् अग्रिमे वर्गे तत्र असन्नह्यत इति पदस्य निर्माणम् अपि अर्थः किमिति पश्यामः अर्थः कः इति अग्रिमे वर्गे पश्यामः अस्तु तर्हि तत्र लक्ष्मी भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि
अस्तु ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदश्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः भगिनि धन्यवादः